छन्दसां ऋषभो विश्वरूपः छन्दोऽभ्योऽधमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारिणो भूयासम् शरीरं मे विचर्षणं जुवा मे मधुमत्तमा कर्णाभ्यां भूरि विश्रुवम् ब्रह्मणा कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय